नमस्सर्वेभ्यः। अद्य छन्दोवर्गस्य द्वादशः पाठः। अद्य वयं तोटकवृत्तस्य लक्षणं जानीमः, तस्य उदाहरणानि च पश्यामः। तोटकस्य लक्षणं भवति इह तोटकमम्बुधिसैः प्रथितम्। पुनः वदामि, इह तोटकमम्बुधिसैः प्रथितम् इति तोटकस्य लक्षणम्। अत्र वयं प्रस्तारं लिखामः चेत् इ इति लघुः, ह लघुः, तो इति गुरुः, ट क म ह्रस्वः, अग्रे संयोगः अस्ति अतः गुरुः, बु धि सैः इति गुरुः, प्रथितम्। गणविभागं कुर्मः। पुनः अत्रापि चत्वारः अपि गणाः समानाः सन्ति। यथा भुजङ्गप्रयाते चत्वारः यगणाः, एवं तोटकवृत्ते चत्वारः सगणाः। अन्त्यगुरुः आदिमध्यावसानेषु भजसा यान्ति गौरवं। सगणः अन्त्यगुरुः, अतः तोटकवृत्ते चत्वारः सगणाः सन्ति। एवम् अत्रापि चत्वारः गणाः, अतः प्रतिपादं द्वादश अक्षराणि। लघु लघु गुरु, लघु लघु गुरु इति पुनः पुनः आवर्तते वृत्ते। इदं तोटकम् इति कथ्यते। तत्र प्रसिद्धा कथा अस्ति, शङ्कराचार्याणां कश्चित् शिष्यः तोटकाचार्याः, तेषां नाम एव अनेन वृत्तेन, यतोहि ते यदा शङ्करभगवत्पादान् दृष्टवन्तः तदैव तोटकवृत्ते श्लोकान् विरचय्य गीतवन्तः। अष्टौ श्लोकाः, तोटकाष्टकम् इत्येव अस्ति। तत्र सर्वे श्लोकाः अस्मिन् छन्दसि एव निबद्धाः, अत एव तेषां नामधेयमपि तोटकाष्टकम् इत्येव जातम्। अतः तोटकाष्टकस्य अयं प्रथमः श्लोकः। विदिताखिलशास्त्रसुधा जलधे, महितोपनिषत्कथितार्थनिधे, हृदये कलये विमलं चरणं, भव शङ्कर देशिक मे शरणम्। अत्र पश्यामः, वि दि ता खि ल शा त्र सु धा ज ल धे। सो लघु लघु गुरु इति अन्त्यगुरुः सगणः, चत्वारः सगणाः अत्र सन्ति इत्यतः तोटकवृत्तस्य लक्षणं सङ्गच्छते अत्र। अन्यदपि अत्यन्तं प्रसिद्धं स्तोत्रमस्ति मधुराष्टकम् इति। कृष्णस्य विषये अष्टौ श्लोकाः, मधुराधिपतेरखिलं मधुरम् इति। तत्र बालानां कृते अत्यन्तं सरलतया पाठयितुं शक्यम् इदं स्तोत्रम्। इदमपि तोटकवृत्ते एव निबद्धमस्ति। अधरं मधुरं वदनं मधुरं, नयनं मधुरं हसितं मधुरं, हृदयं मधुरङ्गमनं मधुरं, मधुराधिपतेरखिलं मधुरम्। तत्र अधरं मधुरं वदनं मधुरम्, चत्वारः सगणाः। इह तोटकम् अम्बुधिसैः, तत्र अम्बुधि शब्दः न व्याख्यातः। अम्बुधिः पूर्वमपि शालिनी वृत्तस्य लक्षणे, शालिन्युक्तां तौ तगौ गो अब्धि लोकैः इत्युक्तम्। अब्धिः इत्युक्ते समुद्रः। अब्धिः अम्बुधिः उभयं समानं, समुद्रः इत्यर्थः। समुद्राश्च चत्वाराः समुद्राश्च चत्वारः इति पुराणेषु प्रसिद्धम्। अतः अम्बुधिशब्दः चतुस्संख्यां बोधयति। अम्बुधिसैः, अम्बुधि इत्युक्ते चत्वारः, सो चतुर्भिः सगणैः युक्तं वृत्तं तोटकम् इति कथ्यते। इत्थञ्च तोटकवृत्ते प्रतिपादं द्वादश अक्षराणि भवन्ति, स स स स इति चत्वारः सगणाः भवन्ति। इह तोटकमम्बुधिसैः प्रथितम् इति तोटकवृत्तस्य लक्षणम्। अभ्यासपत्रे दत्तानां वाक्यानां प्रस्तारं विलिख्य तोटकवृत्तस्य अभ्यासं कुर्वन्तु।